इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः पुनीत त्रिपाठी। प्रधानमन्त्री नरेन्द्रमोदी अद्यारभ्य द्विदिवसीय उत्तर प्रदेश बिहारयोः यात्रायां भविष्यति। प्रधानमन्त्री नरेन्द्रमोदी अद्य उत्तरप्रदेशस्य वाराणसी नगर्यां प्रधानमन्त्री किसान सम्मान निधि योजनान्तर्गतं 20,000 कोटिरूप्यकाणां 17तमं देयराशिं प्रसारयिष्यति। देयराशेः धनं प्रत्यक्षतया 26,00,009 कोटि लाभार्थि कृषकाणां वित्तकोषेष् सम्प्रेषयिष्यते। एतस्मिन् कार्यक्रमावधौ श्रीमोदी स्वयं सहाय्य समूहानां 30,000+ महिलाभ्यः कृषि सखि इत्यस्यान्तर्गतं प्रमाणपत्राण्यपि वितरिष्यति। अद्य सायं श्रीमोदी दशाश्वमेधघट्टे गंगा आरार्तिक्यां समुपस्थितो भविष्यति। तदनन्तरं काशी विश्वनाथ देवालये पूजां दर्शनं च करिष्यति। श्वः प्रातः प्रधानमन्त्री नालन्दायाः भग्नावशेषाणाम् अवलोकनार्थं तत्र गमिष्यति। एतदनन्तरम् असौ बिहारस्य राजगीरस्थले नालन्दा विश्वविद्यालय परिसरस्यापि उद्घाटनं विधास्यति। अत्रावसरे जनसभाम् एकाम् अपि सम्बोधयिष्यति। पश्चिमबंगाले दुरापादितायां रेल दुर्घटनायां 9 जनाः मृत्युमुपगताः। रेलवे बोर्ड इत्यस्य अध्यक्षा जया वर्मा राजधान्यां नवदिल्ल्यां वार्ताहर सम्मेलने उक्तवती यत् सहायोद्धारक कार्यं सम्पन्नम्। अस्यां दुर्घटनायाम् आहत्य 60 जनाः व्रणिताः। प्रधानमन्त्रिणा नरेन्द्रमोदिना रेल दुर्घटनायां गभीरं दुःखं प्रकटितम्। सामाजिक संचार पटले प्रधानमन्त्री अलिखत् यत् पश्चिम बंगाले दुरापादिता रेल दुर्घटना दुखावह विद्यते। अमुना मृतकाणां परिजनान् प्रति संवेदना व्यक्तीकृता। प्रधानमन्त्रिणा व्रणितानां शीघ्र स्वास्थ्य लाभस्य कामना कृता। श्रीमोदिना रेलविभागस्य अधिकारिभिः सह संवादं विधाय स्थितिः परिज्ञाता। रेलमन्त्री अश्विनी वैष्णवः घटनास्थलं सम्प्राप्य अवोचत् यत् प्रधानमन्त्री राष्ट्रिय साहाय्य कोषात् प्रत्येकं मृतकस्य परिजनेभ्यः 10,00,000 रूप्यकाणां प्रत्येकं गभीरतया व्रणितेभ्यः 2,50,000 रूप्यकाणां अथ च प्रत्येकं सामान्यतया व्रणितेभ्यः च 50,000 रूप्यकाणि प्रदास्यन्ते। अत्रान्तरे राष्ट्रपतिः द्रौपदी मुर्मुः रेल दुर्घटनायां दुःखं प्रकटितवती। एकस्मिन् सामाजिक संचार पटले तया लिखितं यत् रेल दुर्घटनायां जनहानि कष्टप्रदा विद्यते। केन्द्रीय गृहमन्त्री अमितशाह उक्तवान् यत् मणिपुरे सर्वेषां नागरिकाणां सुरक्षां सुनिश्चेतुं केन्द्रसर्वकारः पूर्णतया प्रतिबद्धः अस्ति। केन्द्रीय गृहमन्त्री अमितशाह ह्यः नवदिल्ल्यां मणिपुर सुरक्षा स्थितिं समीक्षितुम् उच्चस्तरीयोपवेशनस्य अध्यक्षताम् अकरोत्। केन्द्रीय गृह सचिव अजय भल्ला अधिसूचना अभिकरण प्रमुख तपन डेका थल सेना अध्यक्ष जनरल मनोज पांडेय मणिपुरस्य आरक्षी महानिदेशक राजीव सिंह अन्ये च वरिष्ठाधिकारिण उपवेशनेस्मिन् सम्मिलिता आसन्। इजराइल देशीयेन प्रधानमन्त्रिणा बेंजामिन नेतन्याहू इत्यनेन केन्द्रवादिन विपक्ष नेतुः वेन्नी गेंजस्य तस्य च सहयोगीदलस्य गादी आइसेनकोटस्य त्यागपत्र प्रदानस्य एकसप्ताहस्य अपि न्यूनकालानन्तरं स्वकीयस्य 6-सदस्यीय युद्ध मन्त्रिमण्डलस्य विघटनं कृतवान्। वार्ताप्रवाहिकानुसारं गजाक्षेत्रे हमास संघस्य युद्धस्य विषये संवेदनशील विषयेषु अधुना लघुमञ्चे चर्चा भविष्यति। इजराइल रक्षा सेनायाः प्रवक्ता अवदत् यत् एतेन आज्ञा श्रृंखला प्रभाविता न भविष्यति। ध्येयं वर्तते यत् अक्टूबर मासस्य 7मे दिनांके दक्षिण इजराइल देशे अपूर्व आक्रमणस्य प्रतिक्रियारूपेण इजराइल सैन्येन गजा नगरे हमास संघं विनाशार्थम् अभियानं प्रारब्धम् इति वार्ताः।